इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्री श्री नरेन्द्र मोदी नवदिल्ल्यां ज्ञानभारतमित्यस्मिन् विषये अन्ताराष्ट्रिय सम्मेलने सम्मिलितः। सः ज्ञानभारतम् पोर्टल इति डिजिटल मञ्चस्य शुभारम्भोऽपि कृतवान्। श्री सीपी राधाकृष्णनवर्यः भारतस्य पञ्चदशतमस्य उपराष्ट्रपतिपदस्य शपथग्रहणं कृतवान्। प्रधानमन्त्रिणा नरेन्द्रमोदिना सीपी राधाकृष्णनवर्यं नागरिकाणां सेवायां समर्पितस्य तस्य उपराष्ट्रपतिपदस्य कार्यकालाय शुभकामनाः प्रदत्ता। नेपालदेशे अन्तरिमसर्वकारस्य प्रधानमन्त्रिणः नियुक्तये संवादः द्विदिनानन्तरम् अपि निष्कर्षे न प्राप्तः। अपि च फिडे ग्रैंड स्विस चेस प्रतियोगितायां भारतीयः ग्रैंडमास्टर निहाल सरीन इत्येषः परम मधुसूदलु इत्यमुं पराजित्य सप्तमचरणस्य अनन्तरम् अग्रतां प्राप्नोत्। अथ वार्ताः विस्तरेण। प्रधानमन्त्री श्री नरेन्द्र मोदी नवदिल्ली नगरे ज्ञानभारतमित्यस्मिन् विषये अन्ताराष्ट्रिय सम्मेलने सम्मिलितः। सः पाण्डुलिप्याः अंकीकरणस्य संरक्षणस्य ज्ञानपरिवेषणस्य च त्वरितरूपेण निष्पादनाय समर्पितं ज्ञानभारतं पोर्टल इति डिजिटल मञ्चस्य शुभारम्भोऽपि कृतवान्। अथ अस्मिन् अवसरे सभां च सम्बोधयिष्यति। अवधेयं यत् पाण्डुलिपि परम्परायाः माध्यमेन भारतस्य ज्ञानपरम्परायाः पुनः प्राप्तिः इत्यस्मिन् विषये ह्यः एव त्रिदिवसीय सम्मेलनस्य आरम्भः अभवत्। सम्मेलनमाध्यमेन भारतस्य अप्रतिमपाण्डुलिपिसम्पदः पुनः सम्पुष्टिकरणस्य मार्गेषु विचारं कर्तुं वैश्विकज्ञानसंवादस्य हृदये स्थापयितुं च प्रमुखविद्वांसः संरक्षणविदः प्रौद्योगिकीविदः नीतिविशेषज्ञाः च एकत्र आगताः सन्ति। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य राष्ट्रपतिभवने आयोजिते शपथग्रहणसमारोहे श्री सीपी राधाकृष्णनवर्यं भारतस्य पञ्चदशतमस्य उपराष्ट्रपतिपदस्य शपथग्रहणं कारितवती।
आई चंद्रावरम पुण्यस्वामी राधाकृष्णन
डू स्वेयर इन द नेम ऑफ गॉड
डू स्वेयर इन द नेम ऑफ गॉड
दैट आई विल बेयर ट्रू फेथ एंड अलिजेंस
दैट आई विल बेयर ट्रू फेथ एंड अलिजेंस
टू द कॉन्स्टिट्यूशन ऑफ इंडिया
टू द कॉन्स्टिट्यूशन ऑफ इंडिया
एज बाय लॉ एस्टैब्लिश्ड
Yes, by law established.
And that I will faithfully discharge the duty.
And that I will faithfully discharge the duty.
Upon which I am about to enter.
Upon which I am about to enter.
अस्मिन् शपथ ग्रहण समारोहे प्रधानमन्त्री नरेन्द्र मोदी, पूर्व राष्ट्रपति रामनाथ कोविंदः, पूर्व उपराष्ट्रपति जगदीप धनखड़, अमित शाह, राजनाथ सिंह, जेपी नड्डा, नितिन गडकरी एवं अन्येपि केन्द्रीय मंत्रिणः उपस्थिताः आसन्। शपथ ग्रहणानन्तरं उपराष्ट्रपति सीपी राधाकृष्णनवर्यः राजघाटस्थले महात्मा गांधिने पुष्पांजलिं समर्पितवान्। तेन सदैव अटलेत्यत्र पूर्व प्रधानमन्त्रिणम् अटल विहारी वाजपेयी वर्यम् अपि श्रद्धांजलिः समर्पिता। अवधेयं यत् अस्य मासस्य नवमे दिनांके उपराष्ट्रपतेः निर्वाचने श्रीराधाकृष्णनवर्येण 250+400 मतानि सम्प्राप्य तेन वी सुदर्शन रेड्डी वर्यं 250+100 पराजितम्। प्रधानमन्त्रिणा नरेन्द्र मोदिना सीपी राधाकृष्णनवर्यं नागरिकाणां सेवायां समर्पितस्य तस्य सफल उपराष्ट्रपतिपदस्य कार्यकालाय शुभकामनाः प्रदत्ताः। श्रीमोदिना एकस्मिन् सोशल मीडिया सन्देशे उक्तं यत् श्री राधाकृष्णनवर्यः एकः समर्पितः लोकसेवकः अस्ति। तेन स्वकीयं सम्पूर्णं जीवनं राष्ट्रनिर्माणे, सामाजिककार्ये, लोकतन्त्रं सुदृढीकरणे समर्पितम्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। प्रधानमंत्री नरेन्द्र मोदी श्वः आरभ्य अस्य मासस्य पञ्चदश दिनांक पर्यन्तं मिजोरम मणिपुर असम पश्चिम बंगाल बिहार राज्यानां यात्रां करिष्यति। मिजोरम राज्यस्य प्रवास काले प्रधानमंत्री 9,000 कोटि रूप्यकाणां बहुविध विकास परियोजनानां शिलान्यासं उद्घाटनं च करिष्यति। सम्प्रति प्रधानमंत्री नरेन्द्र मोदी नवदिल्ल्यां ज्ञान भारतमित्यस्मिन् विषये अन्ताराष्ट्रिय सम्मेलने सम्मेलनं सम्बोधयन् अस्ति।
इवेंट नहीं है, ज्ञान भारतम मिशन भारत के संस्कृति साहित्य और चेतना का उद्घोष बनने जा रहा है। हजारों पीढ़ियों का चिंतन मनन भारत के महान ऋषियों आचार्यों और विद्वानों का बोध और शोध हमारी ज्ञान परंपराएं हमारी वैज्ञानिक धरोहरें ज्ञान भारतम मिशन के जरिए हम उन्हें डिजिटाइज करने जा रहे हैं। मैं इस मिशन के लिए सभी देशवासियों को बधाई देता हूं।
प्रधानमंत्री मणिपुरस्य प्रवासकाले सह 8,100 कोटि रूप्यकाणां बहुविध विकास परियोजनानां उद्घाटनं करिष्यति। असम राज्यस्य प्रवासावधौ श्रीमोदी राजधान्यां गौहाटी नगरे डॉ भूपेन हजारिका वर्यस्य शततमस्य जन्म वार्षिकोत्सवे भागं ग्रहीष्यति। अस्मिन् अवसरे सः एकां सभाम् अपि सम्बोधयिष्यति। प्रधानमंत्री राज्ये 18,000 कोटि रूप्यकाणां प्रमुख आधारभूत संरचनायाः औद्योगिक विकासस्य च परियोजनानां उद्घाटनं शिलान्यासं चापि करिष्यति। यात्रायाः अन्तिमे चरणे प्रधानमंत्री पश्चिम बंगाल राज्यं गत्वा राजधान्यां कोलकाता नगरे 16तमस्य कम्बाइंड कमांडर्स सम्मेलनस्य उद्घाटनं करिष्यति। श्रीमोदी बिहार राज्ये गत्वा पूर्णिया विमानस्थानकस्य नूतनस्य टर्मिनल भवनस्य उद्घाटनं करिष्यति। सः राष्ट्रिय मखाना मण्डलम् अपि उद्घाटयिष्यति तथा च पूर्णिया नगरे प्रायः 37,000 कोटि रूप्यकाणां बहुविध विकास परियोजनानां उद्घाटनं करिष्यति। नेपालदेशे अन्तरिम सर्वकारस्य प्रधानमन्त्रिणः नियुक्तये जेनजी प्रतिनिधीनां नेपाल सेनाध्यक्षस्य आशिकराज सिगडेल इत्यस्य नेपाल राष्ट्रपतिनः रामचन्द्र पौडेलस्य च मध्ये संवादः द्विदिनानन्तरम् अपि निष्कर्षे न प्राप्तः। गतरात्रौ राष्ट्रपतिः अध्यक्षः देवराज घिमिरे च संयुक्त वक्तव्ये उक्तवन्तौ यत् वर्तमान स्थितौ संविधानस्य अन्तर्गतं समाधानं अन्विष्यते, संसदः विघटन विषये चर्चायां न कोऽपि निर्णयः संजातः। मॉरिशस देशस्य प्रधानमंत्री डॉक्टर नवीन चंद्र राम गुलाम अयोध्यायां संप्राप्त्यानंतरं श्री रामचंद्रस्य मंदिरे पूजार्चनां कृतवान्। अंतर्राष्ट्रीय महर्षि वाल्मीकि विमानस्थले मुख्यमंत्री योगी आदित्यनाथ कृषि मंत्री सूर्य प्रतापश्च तस्य पारंपरिकरीत्या स्वागतं विहितवन्तौ। डॉक्टर नवीन चंद्र राम गुलाम श्रीरामचंद्रस्य मंदिरे पूजार्चना कृत्वा अंतर्राष्ट्रीय महर्षि वाल्मीकि विमानस्थलेन देहरादूनाय संप्राप्तवान्। छत्तीसगढ़राज्य माओवादीनां सुरक्षाबलानां च मध्ये जाते संघर्षे द्वौ माओवादिनौ मारितौ। बस्तर संभागस्य बीजापुर मंडले जनपदस्य दक्षिण पश्चिम क्षेत्रे माओवादिनः उपस्थितेः सुरक्षाबलेन गुप्त सूचना प्राप्ता आसीत्। सुरक्षा सेनानां संयुक्त दलम् अन्वेषण कार्यार्थं प्रस्थितम् आसीत्। अद्य प्रातः उभयोः मध्ये द्वन्द्वं समारब्धम्। सुरक्षाबलेन अस्मिन् क्षेत्रे अन्वेषणावधौ मृतानां माओवादिनां शवाः प्राप्ताः। एतदतिरिच्य स्थानात् एकं राइफल विस्फोटकानि च प्राप्तानि सन्ति। अस्मिन् क्षेत्रे अन्वेषणकार्यम् अधुनापि प्रचलति। प्रत्येकस्य भारतस्य मार्गः क्रीडाङ्गणः भवितुम् अर्हति तथा च प्रत्येकः मञ्चः भारतस्य ध्वजारोहणस्य साक्षी भवितुम् अर्हति इति युवप्रकरणानां क्रीडामन्त्री डॉ मनसुख मांडविया उक्तवान्। फिडे ग्रैंड स्विस चेस प्रतियोगितायां भारतीयः ग्रैंडमास्टर निहाल सिरिन इत्येषः सप्तमचरणस्य अनन्तरम् अग्रतां प्राप्नोत् इति वार्ताः।